नमः सर्वेभ्यः। अद्य कोविद वर्गस्य चतुश्चत्वारिंशः पाठः, अक्टोबर् मासस्य द्वादशः दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये, जगतः पितरौ वन्दे पार्वती परमेश्वरौ। रघुवंशस्य द्वितीयसर्गस्य मुख्यः भागः अस्माभिः अधीतः। दिलीपः नन्दिन्याः सेवां करोति, तस्याः रक्षणार्थम् आत्मानं समर्पयति। तदा नन्दिनी तम् उत्थाप्य मया मायाशक्त्या तव परीक्षणं कृतम्। सो तं विस्मितं धेनुरुवाच, साधो मायां मयोद्भाव्य परीक्षितोऽसि। तव परीक्षणार्थमेव मया सिंहरूपं सृष्ट्वा त्वया सह सम्भाषणं कृतम्। अहं प्रसन्नास्मि, भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्रवरं वृणीष्व। न केवलानां पयसां प्रसूतिम् अवेहि मां कामदुघां प्रसन्नाम्। सन्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा। दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुङ्क्ष्वेति तमादिदेश। किं वरम् इच्छसि पृच्छ इति नन्दिनी वदति। राजा, सन्तानम् अपेक्षते, वंशस्य कर्तारमनन्तकीर्तिं, पुत्रं सुदक्षिणायां तनयं ययाचे इति। तथास्तु इति नन्दिनी प्रतिज्ञाय मम क्षीरं पिब इति तम् आदिशति। ततः केचन श्लोकाः न सन्ति अध्ययनार्थं। ततः दिलीपः वदति, मत्सस्य होमार्थविधेश्च शेषं ऋषेरनुज्ञाम् अधिगम्य मातः। उधस्यमिच्छामि तवोपभोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः। सा प्रसन्ना स्वयं धेनुः कथयति क्षीरं पिब इति, किन्तु दिलीपः झटिति तत् पातुं न इच्छति। यद्यपि सः बहोः कालात् सन्तत्यर्थं प्रतीक्षमाणः अस्ति, तथापि धर्मप्रज्ञा तस्मिन् सदा जागृता। अतः किं वदति, वत्सस्य होमार्थविधेश्च शेषं। नन्दिन्याः क्षीरस्य प्रथमः भागः भवति वत्सस्य। सो द फर्स्ट् पार्ट्, फर्स्ट् रैट्, प्रैमरी रैट् टु द मदर्स् मिल्क् इस् फार् द काफ्, अण्ड् देन् द प्रैमरी पर्पस् फार् दिस् द कौ इस् देर् इस् द होम, वसिष्ठस्य होमधेनुः नन्दिनी। अतः वत्सस्य होमार्थविधेश्च शेषं, तदर्थम् उपयुज्य यत् शिष्यते क्षीरं, तत् तदपि ऋषेः अनुज्ञाम् अधिगम्य, गुरोः आज्ञां प्राप्य मातः। ऊधस्यमिच्छामि तव उपभोक्तुं, तदनन्तरमेव अहं पातुमिच्छामि। कथं, षष्ठांशम् उर्व्या इव रक्षितायाः। तस्मिन् काले द टाक्स् वास् एट् अ सिक्स्त् पर्सेण्ट्, सो नाट् सिक्स्त् पर्सेण्ट्, वन् सिक्स्त् आफ् द इन्कम् वास् द किङ्ग्, उर्व्याः षष्ठांशम् इव। सो स एव कररूपेण राज्ञा स्वीकरणीयं, राजा रक्षणं करोति। अतः तदर्थं प्रजाभिः प्रजाभ्यः करं सङ्गृह्णाति। तथा यद्यत् द किङ्ग् डस् नाट् टेक् अवे कम्प्लीट्लि, हि आल्वेस् टेक्स् रिलीव्स् वाट् एवर् इस् रिक्वैर्ड् फार् द पर्पस् एण्ड् हि टेक्स् अवे ओन्ली अ पार्ट्। तथैव वत्सार्थं होमार्थं यद्यदपेक्षितं तत्सर्वम् आदौ त्यक्त्वा ततः अहं पिबामि इति दिलीपः वदति। इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव। प्रीततर, पूर्वमेव प्रीतास्मि इति उक्तं, प्रीततर तरप्रत्ययः दृष्टः। शी वाज़् इवन् मोर् प्लीस्ड् वित् दिलीप बिकास् आफ़् हिस् धर्मनिष्ठा। तदन्विता हैमवताच्च कुक्षेः प्रत्याययौ आश्रमम् अश्रमेण दिलीपेन सह नन्दिनी हिमवतः गुहायाः आश्रमं प्रत्याययौ आश्रमं प्रति आगच्छति। तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य प्रहर्ष चिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्त एव। सो सः दिलीपः प्रत्यागत्य आदौ वसिष्ठाय निवेदयति नन्दिन्याः प्रसादम्, अनन्तरं प्रियायै सुदक्षिणायै वदति। अत्र बहु सुन्दरः अलङ्कारः, कालिदासस्य प्रसिद्ध अलङ्कारेषु एषः अपि अन्यतमः। प्रहर्ष चिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्त एव, as if he was repeating, that is looking at his face, प्रहर्ष चिह्न, looking at the delight, signs of delight, anumita, she had already guessed. So prahrsha chinhanumitam vacha shasamsa, so she had already guessed the news just by looking at his delight, and he still orally or verbally he communicated it to his wife, punaruktaya iva, as if a repetition. I mean, she already knows what he has to say, and his words were as if it is a repetition, because message has already been conveyed. It is an utpreksha alankara, punaruktaya iva vacha shasamsa. It was not actually a repetition, kintu punaruktaya iva praharsha chinhanumitam priyayai shashamsa vacha punaruktayeva. ततः किं भवति इति पाठ्यक्रमे अन्तिमः अयं श्लोकः। रघुवंशे अस्मिन् सर्गे इतोपि षट् श्लोकाः सन्ति, किन्तु दिस् इस् द लास्ट् श्लोक इन् द सिलबस्। ये वक्तुम् इच्छन्ति हस्तमुन्नयन्तु। ओके, लता भगिनी,
नमस्ते भगिनी, आई नीड टू रीड इट फर्स्ट, राइट?
या, आई विल टीच। सनंदिनी सन्यमनिंदितात्मा,
सनंदिनी सन्यमनिंदितात्मा, सनंदिनी सन्यमनिंदितात्मा,
सद्वत्सलो वत्सहुतावशेषम्,
सद्वत्सलो वत्सहुतावशेषम्, सद्वत्सलो वत्सहुतावशेषम्,
पपौ वसिष्ठेन कृताभ्यनुज्ञः,
पपौ वसिष्ठेन कृताभ्यनुज्ञः, पपौ वसिष्ठेन कृताभ्यनुज्ञः,
शुभ्रं यशो मूर्तमिवाति तृष्णः,
शुभ्रं यशो मूर्तमिवाति तृष्णः, शुभ्रं यशो मूर्तमिवाति तृष्णः।
सम्यक्, पूर्णं पठतु।
स नन्दिनी स्तन्यमनिन्दितात्मा, सद्वत्सलो वत्सहुतावशेषम्, पपौ वसिष्ठेन कृताभ्यनुग्नः, शुभ्रं यशो मूर्तमिवाति तृष्णः।
सम्यक्,
नौ पदच्छेद इदानीं अहं प्रयत्नं करोमि। नन्दिनी स्तन्यम्, स नन्दिनी स्तन्यम् अनिन्दितात्मा, सद्वत्सलो वत्स हुतावशेषम्। इस् दट् हुता अवशेषम्, पौ वसिष्ठेन कृताभिः
अभ्यनुज्ञः,
ओके, कृत अभ्यनुज्ञः, शुभ्रं यशो मूर्तं, यशः मूर्तं इव अतितृष्णः
सः नन्दिनी स्तन्यम् अनिन्दित आत्मा अनिन्दितात्मा सत्वत्सलः सद्वत्सलः वत्सहुत अवशेषम् वत्सहुतावशेषम् पपौ वसिष्ठेन कृत अभ्यनुज्ञः कृताभ्यनुज्ञः शुभ्रम् यशः मूर्तम् इव अतितृष्णः सन्धिः
ओके सन्धि नन्दिनी स्तन्यम् अनिन्दितात्मा देर् अनुस्वार सन्धि
अनुस्वारः न भवति यतोहि अग्रे स्वरः
it is makara only it comes no what do you say for this
there is no sandhi because there is no change only makara yatra hal vyanjanam bhavati tatraiva anuswarah atra anuswarah na bhavati
okay okay ha nandini sanyam anindita atma there anindita atma we can say savarna dirgha sandhi perhaps जष्ट्वसन्धि वत्सहुता अवशेषं हुतावशेषं अगेन् सवर्णदीर्घसन्धि एण्ड् देन् अपौ वसिष्ठेन कृत अभ्यनुग्नः कृताभ्यनुग्नः वन्स् अगेन् सवर्णदीर्घसन्धि अनुग्नः शुभ्रम् अनुग्नशुभ्रम् सकारादि नो वेन् विसर्गसन्धि वित् सकारादेश हियर् इट् बिकम्स्
शकार सन्धि अनुग्नशुभ्रम् डबल् शकार
ओके यशः मूर्तम् इव अतितृष्णः मूर्तम् इवातितृष्णः इवाति सवर्णदीर्घसन्धि तृष्णः
सम्यक् सो देर् इस् वन् हियर् सः नन्दिनी स्तन्यं स नन्दिनी स्तन्यम् इत्यत्र विसर्गस्य लोपः
ओके ओके
निन्दितात्मा अनिन्दितात्मा हुतावशेषं कृताभ्यनुज्ञः इवातितृष्णः सर्वत्र सवर्णदीर्घसन्धिः सद्वत्सलः इत्यत्र जष्ट्वसन्धिः सद्वत्सलो वत्स इत्यत्र विसर्गस्य उत्वम् सो सिमिलर्लि यशोमूर्तम् यशः प्लस् मूर्तम् बिकमिङ्ग् यशोमूर्तम् उभयत्रापि विसर्गस्य उत्वम् किं वदति दिलीपः वसिष्ठस्य अनुमतिं प्राप्य वत्स होम अवशिष्टम् सो रिमेनिङ्ग् आफ्टर् द काफ् ड्रङ्क् अण्ड् आफ्टर् द होम नन्दिन्याः क्षीरं पीतवान् इति अस्मिन् श्लोके उच्यते क्रियापदं किम् पपौ इति क्रियापदं सम्यक् प्रथमा विभक्तिः दट् वील् सी लेटर् प्रथमा विभक्तौ किं किं पदमस्ति
ओके ओके सः फस्ट् वन् देन् नन्दिनी
नन्दिनी इस् नाट् ए पृथक् पद इट्स् अ समस्त पद नन्दिनी स्तन्यम् इति
ओके ओके अनिन्दित
अनिन्दितात्मा
दट् इस् इन् प्रथमा विभक्ति
अनिन्दितात्मा इस् प्रथमा विभक्ति
तद्वत्सलः इस् आल्सो प्रथमा then vatsahutah avasheesham vatsah
there is no vatsah it is again a samasta pada so no prathama vibhakti
okay avasheesham papau that is the kriya pada then vasish wait, wait. Kruta. Kruta is one. No, no. That is Kruta Pratyaya.
Kruta Bhyanugnyaha. It is Prathama Vibhakti.
Okay, okay. Prathama Vibhakti. Shubram also?
No, that is Dvitiya. Shubram, Yashaha, Murtam is all Dvitiya. Atitrishnaha. Atitrishnaha. Yashaha is also Dvitiya. So, Papau is Yatra. Shubram, Murtam, Yashaha, Iva, Nandini, Sanyam, Papau. So, Saha, Aninditatma, Sadvatsalaha, Kritabhyanugyaha, Atitrishnaha. Iti Prathama Vibhaktau. Dvitiya Vibhakti.
Okay. Here, I have one doubt I always wanted to ask. At this stage also, we mention the Vibhaktis. I mean, we group the words into Vibhaktis. And again, when we do the analysis of it, grammatical analysis, again we say the Vibhaktis. Why do we do it twice?
See, here what we are doing, we are not going into details like Aninditatma. We don't know like what is the Anta or whatever. We are just grouping them by Vibhakti so that we know all this goes with each other. So Saha Aninditatma Sadvatsalaha Kritabhyanugyaha Atitrishnaha is all one person because they are all in the same Vibhakti. So we can relate it to each other by the Anvaya. So next when you have to ask questions, so when there is Prathama, we say Saha Papau. So Kidrishaha Saha, we will have to ask four times to get the four answers. So similarly, if you group it by Dvitiya Vibhakti, you know what is related to each other, which will help in asking the questions and understanding the Anvaya. Whereas later, we do a detailed grammar understanding, trying to know what is the word, what is the Samasa, what is the Anta, Linga, and so on.
Okay, I always wanted to know why we are doing it, right?
Sure.
I clearly understood it. Thank you. Yeah.
Yeah.
I'm sorry. I'm trying to analyze each word, but at once I'm unable to find the Dvitiya. Yashaha, I always thought, why does Yashaha become Dvitiya here?
Yeah. It is Murtam Shubhram Yashaha Iva Papau. He drank it like that. So you have to understand a bit because in Napumsaka Linga it is a bit difficult to differentiate between Prathama Vibhakti and Dvitiya Vibhakti.
So he is drinking
the milk as if drinking fame. That is what the poet is saying. So therefore it is Dvitiya Vibhakti. But just by looking at the word, you cannot distinguish between Prathama and Dvitiya. In most, in any Napumsaka Linga.
Context we need to understand. Yeah.
Yes. Okay. So, Dvitiya Vibhakti?
I think you may ask someone else. I'm little.
No, you try it. See, the more point of this whole class is that you should try on yourself. That is, each person should try. See, for me, it's very easy to give it. It will be quick, but I don't want that. So I am happy that somebody is trying and I deliberately picked those who have not answered in any other time. So it's okay, even if we are late.
Yeah, I know. Yeah. Nandini Sanyam is one in Dvitiya. Okay.
Correct.
Nandini Sadma, then Sadvatsala, Vatsa Huta, Hutavashesham.
Vatsa Hutavashesham.
Okay. And then Kruta... Shubhram.
Shubhram.
Shubhram. Yesho. You said Yesho. Murtam.
Murtam. Samyak. So, that's all. Nandini Stanyam. Vatsa Hutavashesham. Shubhram. Yashaha. Murtam. Those are all in Dvitiya. Next. Tritiya.
Tritiya is Vasishthena.
Vasishthena is Tritiya.
Then.
And then Avyaya. There is no other Vibhakti here. So there is only that Iva is an Avyaya. That's all.
Okay.
So we have completed all. So the easiest way of checking if we have done all is to read the shloka and see if all the words are here. Sa Nandini Stanyam Aninditatma Sadvatsalaha Vatsahutavashekam Papau Vasishthena Kritabhyanugnyaha शुभ्रम यशः मूर्तम इव अतितृष्णः. सो ऑल वर्ड्स आर हियर, सो वी हैव डन. थैंक यू.
थैंक यू
फॉर थैंक यू. सो समबडी वांट्स टू ट्राई द अन्वय. वेंकटकृष्ण महोदय
नमस्ते भगिनि.
नमस्ते.
सो ओके आई जस्ट गिव अ ट्राई फॉर अन्वय.
श्योर श्योर प्लीज. क्रियापदम आदम. द वॉइस ब्रोक आई थिंक. या प्लीज रिपीट.
ओके ओके. पपौ इज क्रियापदम. दैट इज पीतवान.
सम्यक.
ओके. कः पपौ? सह पपौ.
सम्यक्. हेलो. आई थिंक यू म्यूटेड. सॉरी. आई थिंक यू म्यूटेड योर सेल्फ. प्लीज क्लिक ऑन द माइक्रोफोन.
नो नो नो. आई हैव नॉट. Yeah, I have not muted, but yet it is giving me some trouble actually.
Yeah,
I have not muted.
Okay.
Oh, it is giving some sort of a trouble.
Yeah, I don't know. I mean, maybe the.
Because, yeah, you are muted by an organizer. You are unmuted. It is coming very frequently.
Yeah, I don't know why, because I'm not doing anything. It's okay.
I know. It's not.
Okay, please continue.
Saha papau. Yeah, saha papau. Kidrishah saha. Anindita-atma. Punaha kidrishah. Sadvatsalaha.
Uttama.
Punaha kidrishah. पुनः कीदृशः? अतितृष्णः.
अतितृष्णः. सम्यक्. ऐ थिंक द कनेक्शन इज ब्रेकिंग. सो या
ऐ डोंट नो व्हाई, बट इट इज नॉट क्लियर एक्चुअली. ऐ डोंट नो केन कृताभ्यनुज्ञः. केन कृताभ्यनुज्ञः? वसिष्ठेन कृताभ्यनुज्ञः.
सम्यक्.
किं पपौ? नन्दिनीस्तन्यं पपौ. कीदृशं नन्दिनीस्तन्यं? वत्सहुतावशेषं नन्दिनीस्तन्यं. पुनः कीदृशम्?
शुभ्रम्.
पुनः कीदृशं? शुभ्रं. यशः मूर्तं.
किम् इव पपौ?
किम् इव पपौ? कीदृशः यशः? कीदृशः यशः?
कीदृशं यशः? मूर्तं यशः इव पपौ.
कीदृशं यशः? मूर्तं.
सम्यक्. उत्तमम्. सो पपौ पीतवान्. कः पपौ? सः दिलीपः पीतवान्. कीदृशः सः? अनिन्दितात्मा. अनिन्दितात्मा. निन्दितं नाम गर्हितं. न निन्दितम् अनिन्दितम्. अगर्हितः आत्मा. अगर्हित स्वभावः. सोरि. या अगर्हित स्वभावः. सो ही हूज़ नेचर इज नॉट कंडेमनेबल. नॉट कंडेम्ड बाय एनीबडी. So he who is pure ityarthah. Sadvatsalah. Punah kidrishah. Sadvatsalah. Satsu sajjaneshu prema yuktah. Vatsalah. He who is affectionate towards sajjanas. So Kalidasa is using a shabdalankara. So Nandini, Nindita, Vatsalaha, Vatsa, and so on. So these two visheshanas are more for that effect, anuprasa effect. And of course, there is the concept of purity associated throughout the shloka. That's why he says, Anindita-atma, sadvatsalaha, sajjaneshu, vatsalaha, premayuktaha. Punah kidrishaha krita-abhyanugnyaha. Abhyanugnya nama anumatihi kritaha. So having obtained the permission or having been given the permission. Vihita anumatihi. Kena krita-abhyanugnyaha vasishthena. So guruna vasishthena krita agnyaha prapta anumatihi. Punah kidrishaha atitrishnaha atyantam pipasitaha extremely thirsty. That is, he was thirsting for not the physical drava but for santati. So atyantam utsukaha iti arthaha. So atyantam utsukaha, extremely eager. So being extremely eager, Dilipaha nand pitavan. Kim pitavan? Nandini stanyam. Nandinyaha kshiram papau. Kidrisham nandini stanyam. Vatsa huta avashesham. Vatsa, the calf. Huta is the offering of in homa. So vatsasya pananantaram homa vidhau upayujya yat shishtam. So first the calf drinks, then being used in the homa, and whatever is remaining after that. Vatsa hutava shesham. Kim iva papau. So atra kalidasaha upamam ekam dadati. Like what? Murtam shubhram yashaha iva. Vastutaha tatra shubhram iti ubhayatrapi anveti. Kshiram ityatrapi shubhram. Shubhram nandini stanyam papau. Kim iva shubhram yashaha iva. So murtam, murtam dravyarupam, material. Yashaha or fame is not actually material. It is abstract. But as if the milk, the white milk of the cow was that parishuddha kirti. So shubhram, parishuddham yashaha. Kirtim iva papau, as if he was drinking fame itself. So fame usually, that is the good name. Fame is described in white to indicate purity. So the milk was also pure and he drank it as if he is drinking a bowl of pure fame. So murtam shubhram yashaha iva papau. Purunaha anvayaha saha anindita-atma sadvatsalaha vasishthena krita-abhyanugnyaha vatsahutavashesham nandini-stanyam shubhram murtam yashaha iva atitrishnaha papau. Ahartaha agarhita-svabhavaha. He who was not condemned by anybody, he who was of a very pure character, sadvatsalaha, sajjaneshu premavan, he who was very affectionate towards the good people, tadrishaha sahadilipaha, guroho anumatim prapya, having obtained the permission of his preceptor, vasishtha, vatsahutavashesham, vatsasya pananantaram, homavidhau upayujya yatshishtam, that which remained after the cow, the calf had his share, and after the offering for the homas were prepared. So that nandinyaha kshiram dravyarupena sthitam shuddham kirtim iva, as if it was pure fame materialized in the form of that white milk. So iva atyantam pipasitah. So he took it extremely thirsty or extremely eagerly. He partook that milk. Sanandini stanyamanindita sadvatsalo vatsahuta vashesham papau vasishthena krita abhyanujnyah shubham yasho murtamivati trishnah. Agre vyakaranam shan pashyamaha. Jai Shri Bhagini.
Namaste Bhagini.
Okay, I've skipped some of the common ones. It's okay. You can say.
Nandini stanyam. Nandinyaha stanyam. Nandini stanyam. Akaranta.
Akaranta. Napumsakalinga. Dvitiya vibhaktihi. Ekavachanam.
Ekavachanam.
Nandinyaha stanyam. Nandini stanyam. Ityatra. Shashtati. तत्पुरुषः तत्र स्तन्यम् इत्युक्ते स्तने भवं स्तन्यं तद्धितप्रत्ययः सो ब्रेस्ट् मिल्क् इत्यर्थः सो दट् विच् इस् जनरेटेड् इन् द ब्रेस्ट् अतः स्तन्यम् इत्यस्य क्षीरम् इत्यर्थः अनिन्दितात्मा
अनिन्दित आत्मन् अनिन्दितात्मन् नकारान्त पुल्लिङ्गशब्दः प्रथम एकवचनम् अनिन्दितः नय तत्पुरुष अनिन्दितः आत्मन्
आत्मा
कर्मधारः भवति वा
यस्य सः अनिन्दितः आत्मा यस्य सः अत्र आत्मा नाम चारित्रम् इत्यर्थः सो आत्मशब्दस्य बहवः अर्थाः सन्ति सो ही हूस् क्यारेक्टर् एसेन्स् वास् अनिन्दित इत्यर्थः बहुव्रीहि सो अनिन्दितात्मा इति नकारान्तः पुल्लिङ्गः न निन्दितः अनिन्दिनः अनिन्दितः नैन्य तत्पुरुषः अनिन्दितः आत्मा यस्य सः अनिन्दितात्मा इत्यत्र बहुव्रीहिः सद्वत्सलः
सद् वत्सलः सत्सु वत्सलः अकारान्त पुल्लिङ्गशब्द प्रथम एकवचनं
समासः
सत्सु सप्तमी तत्पुरुष
सत्सु वत्सलः सद्वत्सलः सप्तमी तत्पुरुषः
पुरुषः अग्रे
वत्सहुत अवशेषम्
वत्सहुत अवशेषम् वत्सेन हुतम्
Vatsa and Huta are separate here. It's not Homa by the Vatsa. Vatsa is the calf and Huta is the Homa.
Vatsa. Vatsa cha Huta cha?
Vatsa ha cha Hutam cha.
Vatsa Hute. Vatsa Hute. Dvandra Samasa. Vatsa Hute Avashesham.
वत्सहुतयोः अवशेषः
वत्सहुतयोः अवशेषं सः
सो द रिमैण्डर् आफ् द वत्स एण्ड् हुत सो तत्र षष्ठी तत्पुरुषः वत्सहुतयोः अवशेषः स्वकारान्तः नपुंसकलिङ्गः स्तन्यम् इत्यस्य विशेषणं द्वितीया विभक्तौ एकवचनं सो वत्सः च हुतं च वत्सहुते इत्यत्र द्वन्द्वः वत्सहुतयोः अवशेषः षष्ठी तत्पुरुषः तम् धन्यवादाः महादेवन् महोदय पा धातोः लिट्लकारे प्रथमपुरुषैकवचनं पापाने इति धातुः पपौ वसिष्ठेन सम्यक् कृताभ्यनुज्ञः कृता अभ्यनुज्ञा यस्य सः अज्ञा शब्दः अनुज्ञा आज्ञा इति स्त्रीलिङ्गे बहुव्रीहिः सो अकारान्तः पुल्लिङ्गः कृता अभ्यनुज्ञा यस्य सः कृताभ्यनुज्ञः बहुव्रीहि समासः द्वितीया एकवचनं यशः
सकारान्तः प्रपञ्चपुलिङ्गे द्वितीया विभक्ते यशः यशति यशः मूर्तं मूर्तमिति अकारान्तप्रपञ्चपुलिङ्गे द्वितीया विभक्ते
इव इति अव्ययम्
अतितृष्णः अकारान्तस्त्रीलिङ्गे प्रथमाविभक्ते वर्धनम्
सम्यक् अतितृष्णः समासः अतितृष्णा यस्य सः अतितृष्णः सो एक्स्ट्रीम् थर्स्ट् ही हू हेज़् एक्स्ट्रीम् थर्स्ट् मया न लिखितं विस्मृतम् सो वीड् से बहुव्रीहि समास अति अजन अव्यय अति तृष्णा यस्य सः अतितृष्णः धन्यवादाः सनन्दिनी स्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तमिवातितृष्णः अथा उक्तम् अत्र उपमालङ्कारः अस्ति तत्र नन्दिनी स्तन्यम् इति उपमेयः यशः उपमानम् सो द मिल्क् इस् बीङ्ग् कम्पेर्ड् टु यशः कीर्ति फेम् इव इति उपमावाचकशब्दः शुभ्रत्वं सो बीङ्ग् प्योर् अण्ड् वैट् बोथ् आर् इण्टर्चेञ्जबल् एस् इन् वैट् इस् stands for purity and purity is signified by whiteness so shubhratvam iti sadharana dharmah atah atra purnopama alankarah asti upajatih vrittam prathama pade tritiya pade upendra vajra cha dvitiya chaturthe cha indra vajra vrittam atah upajatih anena asmabhih नन्दिनीवरप्रदानम् इत्यस्य रघुवंशस्य द्वितीयसर्गस्य सङ्क्षेपेण अध्ययनं कृतम् यद्यपि सर्वे श्लोकाः न अधीताः कथायाः सारस्तु ज्ञातः अत्र एकः प्रश्नः मूर्तम् इत्यस्य किं कः अर्थः इति मूर्तम् इस् दट् विच् इस् मेटीरियल् सो दट् विच् हेज़् अ फिसिकल् फार्म् सो यशः does not actually have a physical form but as if it was fame in its physical form the milk is compared to fame which has taken a material form so asya kathayah sankshepah vayam drishtavantah excuse me just one moment I'll be back कथायाः संक्षेपः. सन्तानप्राप्त्यर्थं नन्दिन्याः सेवायां दिलीपः आत्मानं योजयति. सेवायाः वर्णनं दृष्टम्. आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च अव्याहतैः स्वैरगतैः सतस्याः सम्राट् समाराधनतत्परोऽभूत्. एवं सप्तव्यतीयुस्त्रिगुणानि तस्य. एकविंशतिं दिनानि यावत् दिलीपः नन्दिन्याः सेवां करोति. द्वाविंशे दिने सिंहेन गृहीता नन्दिनी तं सिंहं हन्तुं दिलीपः बाणम् उद्धर्तुं प्रयतते, किन्तु तस्य हस्तः स्तब्धः. चित्रार्पितारम्भ इवावतस्थे. ततः सः सिंहः मनुष्यवाचा मनुवंशकेतुं विस्माययन् उवाच, स्वस्य वृत्तान्तं कथयति. अहं शिवगणः कुम्भोदरः, अत्र देवदारुवृक्षस्य रक्षणार्थं शिवः मां नियोजितवान्. अत्र समीपं यः कोऽपि प्राणी आगच्छति चेत् अहं खादित्वा स्वस्य उदरपूरणं करिष्यामि. अतः एतां धेनुं अहं खादामि इति कुम्भोदरः वदति. ततः दिलीपसिंहयोः सम्भाषणं. दिलीपः नन्दिनीं त्यक्तुं सिंहं प्रार्थयते, आत्मानम् अर्पयति. सिंहः तं ततः निवर्तयितुं प्रवर्तते. सो द लयन् ट्रैस् टु कन्विन्स् दिलीप टु लेट् द कौ गो अण्ड् रिटर्न्, वेर् एस् दिलीप रिफ्यूसस् टु लेट् इट् गो. अन्ते नन्दिनीं रक्षितुम् आत्मानं दिलीपः अर्पयति. ततः नन्दिनी प्रीता सति स्वस्याः मायया एव एतत् सर्वम् इति उक्त्वा राज्ञः इच्छां पूरयति. नन्दिन्याः क्षीरं पीत्वा दिलीपः अग्रे सन्ततिं प्राप्स्यति. सर्गस्य अन्तिमे श्लोके सः वदति, गर्भमाधत्त राज्ञी सुदक्षिणा गर्भं धरति रघुः इत्येतम् अतिविशिष्टं पुत्रं सूते इति रघुवंशस्य द्वितीयः सर्गः. वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ. सो वी हैव कम्प्लीटेड् द स्टडी आफ् द श्लोकस् आफ् रघुवंश. नेक्स्ट् क्लास् विल् बि नेक्स्ट् फ्रैडे. सो जस्ट् टु गिव् यू एन् औट्लैन्, वी हैव कम्प्लीटेड् इन् द ग्रामर् पोर्शन्स् वी हैव डन् द समासस् तद्धितस् निजन्तस्. देर् आर् टू small topics remaining. One is sannantas and the other is natvam. Okay, so we'll probably cover them in one class each, should not take more than that probably. The Raghuvamsha shlokas are done. The Subhashitas have been done by the students themselves. So in the coming week we'll complete the reviews, and I request all the students to send audio or video recordings of explaining the shloka so that we can upload them for the benefit of all the students. What is remaining in the Kovida portion is, one is the Kavya Katha, where they have the stories of Naishadhiya Charita and Kumara Sambhava, is it? I think. So two Kavyas, the story is given in the form of simple prose. I think by this stage you should be able to read and understand it. Okay, so I don't want to explain it because we have done the shlokas themselves, we have understood the shlokas in detail. So you should very definitely be able to read and understand. It is very simple gadya. So please go through them. What I'll do is I'll give a very brief outline of the story and a few tips, because the major questions from that section will be on writing, explaining with reference to context, sasandarbham vivrunuta or ERC. So just how to attempt them. So if you have any questions regarding those, so please read up those sections. So it is the fourth section in each lesson, I think. So the Kavya Katha, you can read them. If you have any specific questions or some portion which you did not understand, you can ask. I am not going to do it line by line. So please read and we'll clarify if there are any questions. There are also some sections regarding the history of Sanskrit literature and the major poet. I'll give an overview of that, the different types of kavyas and the major poets and all. Again, an overview, because you can read the details and all in the book. It's there. So the next few classes, we will be doing a brief history of Sanskrit literature, the different types of kavyas, the major texts of each type, the major poets and Shastrakartas who have been mentioned in this, and a very brief overview of the Kavya Katha. There is also, I think, some essay writing and Patra Lekhanam. So if you need anything in any specific portions, if you need anything, so please feel free to drop an email so that I'll plan to include that in the course. Okay, so we have done 44 classes today. So I expect to finish the course in another 6 classes. That is 50 classes is what I'm planning. So 3 more weeks approximately. If there is something, it may go to 1 more week. Okay, so please do go through those, especially those who are writing the exams. If you have any specific questions, you can ask. We will stop here. So there's a question. Have you corrected the Subhashitas from students? Yeah, I have corrected some of them. I am reviewing the rest. I will send it back to you without fail in the next week. Okay. So if there are any corrections or something, so then please make a short recording of it explaining the Subhashita, preferably in Sanskrit, or you can explain in Sanskrit and also English. And send that audio. So the notes and the audio we will put up in the website so that it will be useful for students who are learning for the examinations. Okay. So can you please teach letter writing? Yeah, we can do it. I mean, it's like the pattern is already given. We can do it quickly. Okay. Okay, so there is one question, I think. One moment. Yes, Sharma Mahodaya. Kaha Prashnaha?
Is this explanation wrong?
Which one? Taradhyasita Kataraksya?
Tasmin, can't we say Tasmin Dilipe, Adhyasita, Sthapita?
Mallinatha very clearly interprets that Simhasya Akramanam. Okay, so if we look at the actual Vyakhyana, so he does not take the Tat Shabda is related to the Simha. There, just a moment, I'll show you the Vyakhyanam.
Vyakhyane Tena Ityasti. Tena Ityasti
Vyakhyane. Tena Adhyasitam Ityatra. Just one second. So Taradhyasita Kataraksya Tena Simhena Yad Adhyasitam Vyakramanam. So Tena Ityasya Simhena Yad Adhyasitam Vyakramanam Tena Akramanena Katare Akshini Yasyaha. So tatra adhyasitam ityasya api napumsake bhavektah. Adhyasitam nama vastutah upari upaveshanam, which means to sit on, overpower something by seated on. Shamitam,
is my explanation wrong? I think it is also possible.
Possible if you are taking Adhyasita as her eyes being fixed on this one.
It's
possible. It is nothing, as in grammatically it is not wrong. Yes. but that is how the this thing is there. Vyakhyana, because he is taking that katara, he is taking the adhyasita as the cause for that katara. She is extremely scared because of the simha.
But the thing is, the sentiment of daya must be produced in Dilipa.
Yeah, yeah, definitely.
For that, this will be better, is it not?
No, nirikshamanaha is always there. So, tadadhyasita kataraksha, since the nirikshamanaha already says that he is being looked at by the cow. So, the tadadhyasita is like with her eyes on it. He cannot be seen without her eyes on being on her, on him. So, it is a sort of repetition, right?
No, kataraksha is there. Katarakshya nirikshane, katarattva nastva.
Kataraksya nirikshamanaha. Dilipa is being seen, looked at by the cow. Okay. When you are again taking tadadhyasita is with her eyes fixed upon him. It is like both nirikshamanaha and tadadhyasita are conveying the same thing.
Punarukti.
Yeah.
Okay, thank you.
Yeah. Thank you. Any other questions? Okay, so we'll stop here. Gurureva gatir gurumeva bhaje gurunaiva sahasmi namo gurave na guroh paramam shishurasmi guror matirasti gurau mama pahi guro. Dhanyavadaha. Agrima shukravasare milama.